ओम नमो भगवते वासुदेवाय। अथैकविंशोऽध्यायः। श्रीशुक उवाच। सत्यं समीक्ष्याब्ज भवो नखेन्दुभिर्हतः स्वधाम द्युतिरावृतोऽभ्यगात्। मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनात्या नरदेवयोगिनः। वेदोपवेदा नियमान्विताय मास्तर्केतिहासाङ्गपुराणसंहिताः। ये चापरे योगसमीरदीपितज्ञानाग्निनारन्धितकर्मकल्मषाः। ववन्दिरे यत्स्मरणानुभावत स्वायम्भुवम् धाम गता अकर्मकम्। अथाङ्ग्रये प्रोन्नमिताय विष्णोरूपा हरत्पद्मभवोऽर्हणोदकम्। समर्च्य भक्त्याभ्यगृणाच्छुचिस्रवा यन्नाभिपङ्के रुहसम्भवः स्वयम्। धातुः कमण्डलुजलम् तदुरुक्रमस्य पादावने जनपवित्रतया नरेन्द्र। स्वर्धुन्यभून्नभसि सा पतति निमार्ष्टि लोकत्रयम् भगवतो विशदेव कीर्तिः। ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः। सानुगा बलिमाजर्रुः सङ्क्षिप्तात्मविभूतये। तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिस्वनैः। जाम्बवान् वृक्षराजस्तु भैरीशब्दैर्मनोजवः विजयम् दिक्षु सर्वासु महोत्सवमघोषयत्। महीम् सर्वामृताम् दृष्ट्वा त्रिपदव्याजयाच्यया ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः। न वा अयम् ब्रह्मबन्धुर्विष्णुर्माया विनाम्बरः द्विजरूपप्रतिच्छन्नो देवकार्यम् चिकीर्षति। अनेन याचमानेन शत्रुणा वटुरूपिणा सर्वस्वम् नो हृतम् भर्तुर्न्यस्तदण्डस्य बर्हिषि। सत्यव्रतस्य सततम् दीक्षितस्य विशेषतः नानृतम् भाषितुम् शक्यम् ब्रह्मण्यस्य दयावतः। तस्मादस्य वधो धर्मो भर्तु शुश्रूषणम् च नः। इत्यायुधा निजगृहुर्बलेरनुचरासुराः। ते सर्वे वामनम् हन्तुम् शूलपट्टिषपाणयः। अनिच्छतो बले राजन् प्राद्रवम् जातमन्यवः। तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः। नन्दसुनन्दोऽथ जयो विजयः प्रबलो बलः। कुमुदः कुमुदाक्षश्च विश्वक्सेनः पतत्रिराट् जयन्तश्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः। सर्वे नागायुतप्राणाश्चमूम् ते जग्नुरासुरीम्। हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः वारयामास संरब्धान् काव्यशापमनुस्मरन्। हे विप्रचित्ते हे राहो हे नेमे श्रूयताम् वचः। मायुध्यत निवर्तध्वम् ननः कालोऽयमर्थकृत्। यः प्रभु सर्वभूतानाम् सुखदुःखोपपत्तये तम् नातिवर्जितुम् दैत्याः पौरुषैरीश्वरः पुमान्। यो नो भवाय प्रागासीदभवाय दिवौकसाम् स एव भगवानद्य वर्तते तद्विपर्ययम्। बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः सामादिभिरुपायैश्च कालम् नात्येति वै जनः। भवद्भिर्निर्जिता येते बहुशोऽनुचरा हरेः दैवेनर्धैस्तयेवाद्य युधि जित्वा नदन्ति नः। एतान् वयम् विजेष्यामो यदि दैवम् प्रसीदति तस्मात्कालम् प्रतीक्षध्वम् योनोऽर्थत्वाय कल्पते। श्रीशुक उवाच। पत्युर्निगदितम् श्रुत्वा दैत्यदानवयूथपाः रसाम् निविविशु राजन् विष्णुपार्षदताडिताः। अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् बबन्धवारुणैः पाशैर्बलिम् सौत्येह निक्रतौ। हाहाकारो महानासीद् रोदस्यो सर्वतो दिशम् गृह्यमाणे सुरपतौ विष्णुना प्रभविष्णुना। तम् बद्धम् वारुणैः पाशैर्भगवानः वामनः। नष्टश्रियम् स्थिरप्रज्ञ मुदारयशसम् नृप। पदानि त्रीणि दत्तानि भूमेर्मह्यम् त्वयासुर द्वाभ्याम् क्रान्ता मही सर्वा तृतीयमुपकल्पय। यावत्तपत्यसौ गोभिर्यावदिन्दुः स ओडुभिः। यावद्वर्षति पर्जन्यस्तावती भूरियम् तव। पदैकेन मया क्रान्तो भूर्लोकः खम् दिशस्तनोः। स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना। प्रतिश्रुतमदातुस्ते निरये वास इष्यते विषत्वम् निरयम् तस्माद्गुरुणा चानुमोदितः। वृथा मनोरथस्तस्य दूरे स्वर्गः पतत्यधः। प्रतिश्रुतस्यादानेन योऽर्थिनम् विप्रलम्भते। विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टमस्कन्धे वामन प्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।